सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो कृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेतदुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतोऽज्याजागश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यावृतम् दिवि त्रिपादोऽध्वगुदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनादशने अभि तस्माद्विराड जायत विराजो अधिपूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवयज्ञमतन्वत वसन्तो अस्यासीराज्यम् ग्रीष्म यद्मः शरद्भविः सप्तास्यासन्परिधयः सप्तसमिध कृताः देवायज्ञम् तन्वानाः अपध्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारिषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् मृषदाज्यम् पशोगस्तागश्चक्रे वायव्याने आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामारिजज्ञिरे छन्दागुंसिजज्ञिरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त एके च भयादतः गावो भजज्ञिरे तस्मात् तस्माज्जात अजावयः यत्पुरुषम् यदधुः प्रतिधाव्यकल्पयन् मुखम् निमस्य कौ बाहू कावोरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ओरोदरस्य यद्वैश्यः पद्भ्यागुम् शोद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्योः समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विजेद्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूतः पृथिवीरथा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वयो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मन् जनयन्तः देव अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देव अशन्वशे ह्रीश्चते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् प्रभुम् विश्वतः परमम् नित्यम् विश्वन्नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ज्योतिरात्मा नारायणः परः यच्च किञ्चिद्यगत्यस्मिन् दृश्यते श्रूयतेऽपि वा अनन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रदीकाशकम् हृदयम् चाप्यथोमुखम् अथो निष्ट्यापि तस्यान्तुनाभ्यामुपरितिष्ठति हृदयम् तद्विजानीयाद्विश्वस्यायतनम् महत् सन्ततगम् शिराभिस्तुलम् पत्याकोशसन्निभम् तस्यान्ते सुशिरगम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाग्निर्विश्वतोमुखः सोग्रभुग्विभजम् तिष्ठन्नाहारमजरः कविः सन्तापयति स्वम् देहमापादलमस्तकम् तस्य मध्ये वह्निशिखा अनीयोऽधाव्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेके वभास्वरा नीवारशोकवत्तन्वी पीताभा स्यात्तनूपमा तस्या शिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमस्वराट् ऋतगम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ओर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमः ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् विष्णोर्नुगम् वीर्याणि प्रवोचय्यः पार्थिवानि विममे रजागुंसि यो अस्तभायदुत्तरगम् सधस्तम् विजक्रमाणस्त्रेधानुगायो विष्णोरराटमसि विष्णो पृष्ठमधि विष्णोऽस्न्यत्रेस्तो विष्णोऽस्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा